ओम नमो भगवते वासुदेवाय। अथैकोनचत्वारिंशोऽध्यायः। श्रीशुक उवाच। सुखोपविष्टः पर्यङ्के रामकृष्णो रुमानितः। लेभे मनोरथान् सर्वान् पथियान् सचकारः। किमलभ्यम् भगवति प्रसन्ने श्रीनिकेतने। तथापि तत्परा राजन् नहि वाञ्छन्ति किञ्चन। सायन्तनाशनम् कृत्वा भगवान् देवकीसुतः सुहृत्सुवृत्तम् कंसस्य पप्रच्छान्यच्चिकीर्षितम्। श्रीभगवानुवाच। तादसौम्यागतः कच्चित् स्वागतम् भद्रमस्तु वः। अपि स्वज्ञातिबन्धूनामनमीव मनामयम्। किम् नुनः कुशलम् पृच्छे एधमाने कुलामये। कंसे मातुलनाम्यङ्ग स्वानाम् नस्तत्प्रजासु च। अहो अस्मदभूद्भूरि पित्रोर्वृजिनमार्ययोः। यद्धेतोः पुत्रमरणम् यद्धेतोर्बन्धनम् तयोः। दिष्ट्याद्यदर्शनम् स्वानाम् मह्यम् वः सौम्यकाङ्क्षितम्। सञ्जातम् वर्ण्यताम् तात तवागमनकारणम्। श्रीशुक उवाच। पृष्टो भगवता सर्वम् वर्णयामास माधवः। वैरानुबन्धम् यदुषु वसुदेववधोद्यमम्। यत्सन्देशो यदर्थम् वा दूतः सम्प्रेषितः स्वयम्। यदुक्तम् नारदेनास्य स्वजन्मानकदुन्दुभेः। श्रुत्वा क्रूरवचः कृष्णो बलश्च परवीरः। प्रहस्यनन्दम् पितरम् राज्ञादिष्टम् विजज्ञतुः। गोपान् समादिशत्सोऽपि गृह्यताम् सर्वगोरसः। उपायनानि गृह्णीध्वम् युज्यन्ताम् शकटानि च। यास्यामः श्वो मधुपुरीम् दास्यामो नृपते रसान्। द्रक्ष्यामः सुमहत्पर्व यान्ति जानपदाः किल। एवमाघोषयत्क्षत्र नन्दगोपः स्वगोकुले। गोप्यस्तास्तदुपश्रुत्य बभूवुर्व्यथिता भृशम्। रामकृष्णौ पुरीम् नेतुमक्रूरम् व्रजमागतम्। काश्चित् तत्कृतहृत्ताप श्वासम् लानमुखश्रियः। स्रंसद्दुकूलवलय केशग्रन्थ्यश्च काश्चन। अन्याश्च तदनुध्यान निवृत्ता शेषवृत्तयः। नाभ्यजानन्निमम् लोकमात्मलोकम् गता इव। स्मरन्त्यश्चापरा शौरेरनुरागस्मितेरिताः। हृदि स्पृशश्चित्रपदा गिर सम्मुहुः स्त्रियः। गतिम् सुललिताम् चेष्टाम् स्निग्धहासावलोकनम्। शोकापहानि नर्माणि प्रोद्दामचरितानि च। चिन्तयन्त्यो मुकुन्दस्य भीता विरह कातराः। समेताः सङ्घशः प्रोचुरश्रुमुख्योच्युताशयाः। गोप्य ऊचुः। अहो विधातस्तव न क्वचिद्दया संयोज्य मैत्र्या प्रणयेन देहिनः। तांश्चाकृतार्थान् वियुनङ्क्ष्य पार्थकम्। विक्रीडितम् तेऽर्भकचेष्टितम् यथा। यस्त्वम् प्रदर्श्यासित कुन्तलावृतम् मुकुन्द वक्त्रम् सुकपोलमुन्नसम्। शोकापनोदस्मितलेश सुन्दरम् करोषि पारोक्ष्यमसाधु ते कृतम्। क्रूरस्त्वमक्रूरसमाख्ययास्मनश्चक्षुर्हि दत्तम् हरसे बताज्ञवत्। येनैकदेशेऽखिल सर्गसौष्ठवम् त्वदीयमद्राक्ष्म वयम् मधुद्विषः। ननन्दसूनुः क्षणभङ्गसौहृदः समीक्षते नः स्वकृतातुराबत। विहाय गेहान् स्वजनान् सुतान् पतीन्स्तद्दास्य मध्योपगता नवप्रियः। सुखम् प्रभाता रजनीयमाशिषः सत्या बभूवुः पुरयोषिताम् ध्रुवम्। या सम्प्रविष्टस्य मुखम् व्रजस्पते पास्यन्त्यपाङ्गोत्कलितस्मितासवम्। तासाम् मुकुन्दो मधुमञ्जुभाषितैर्गृहीतचित्तः परवान् मनस्व्यपि। कथम् पुनर्नः प्रतियास्यते बला ग्राम्या स लज्जस्मितविभ्रमैर्भ्रमन्। अद्य ध्रुवम् तत्र दृशो भविष्यते दाशार्हभोजान्धकवृष्णिसात्वताम्। महोत्सवः श्रीरमणम् गुणास्पदम् द्रक्ष्यन्ति ये चाध्वनिदेवकीसुतम्। मैतद्विधस्या करुणस्य नाम भूदक्रूर इत्येतदतीव दारुणः। योऽसावनाश्वास्य सुदुःखितम् जनम् प्रियात् प्रियम् नेष्यति पारमध्वनः। अनार्द्रधीरेश समास्थितो रथम् तमन्वमी च त्वरयन्ति दुर्मदाः। गोपा अनोऽपि स्थविरैरुपेक्षितम् दैवम् च नोऽद्य प्रतिकूलमीहते। निवारयाम समुपेत्य माधवम् किम् नो करिष्यन् कुलवृद्ध बान्धवाः मुकुन्द सङ्गान् निमिषार्थ दुस्त्यजात् दैवेन विध्वंसित दीनचेतसाम् यस्यानुराग ललित स्मित वल्गु मंत्र लीलावलोक परिरंभण रास गोष्ठ्याम् नीतास्मन क्षणमिव क्षणदा विनातम् गोप्य कथम् न्वतितरेम तमो दुरंतम् योन्न क्षये व्रजमनंत सखः परीतो गोपैर्विशन् खुर रजश्छुरितालकस्रक् वेणुम् क्वणन् स्मितकटाक्ष निरीक्षणेन चित्तम् क्षिणोत्यमुमृतेनु कथम् भवेम। श्रीशुक उवाच एवम् ब्रुवाणा विरहातुरा वृषम् रजस्त्रियः कृष्णविषक्तमानसाः विसृज्य लज्जाम् रुरुदुः स्म सुस्वरम् गोविन्द दामोदर माधवेति स्त्रीणामेवम् रुदन्तीनामुदिते सवितर्यथ अक्रूरश्चोदयामास कृतमैत्रादिको रथम् गोपास्तमन्वसज्जन्त नन्दाद्या शकटैस्ततः आदायोपायनम् भूरि कुम्भान् गोरस सम्भृतान् गोप्यश्च दयितम् कृष्णमनुव्रज्यानुरञ्जिताः प्रत्यादेशम् भगवतः काङ्क्षन्त्यश्चावतस्थिरे तास्तता तप्यतीर्वीक्ष्य स्वप्रस्थाने यदूत्तमः सान्त्वयामास च प्रेमैरायास्य इति दौत्यकैः यावदा लक्ष्यते केतुर्यावद् रेणुरथस्य च अनुप्रस्थापितात्मानो लेख्यानीवोपलक्षिताः तान्निराशानिव वृत्तिर्गोविन्दविनिवर्तने विशोका अहनी निन्युर्गायन्त्यः प्रियचेष्टितम् भगवानपि सम्प्राप्तो रामाक्रूरयुतो नृप रथेन वायुवेगेन कालिन्दीमघनाशिनीम् तत्रोपस्पृश्य पानीयम् पीत्वा मृष्टम् मणिप्रभम् वृक्षषण्डमुपव्रज्य स रामो रथमाविशत् अक्रूरस्तावुपामन्त्र्य निवेश्य च रथोपरि कालिन्द्या हृदमागत्य स्नानम् विधिवदाचरत् निमज्ज्य तस्मिन् सलिले जपन् ब्रह्म सनातनम् तावेव ददृशे क्रूरो रामकृष्णौ समन्वितौ तौ रथस्थौ कथमिह सुतावानकदुन्दुभेः तर्हि स्वित्सन्दनेनस्त इत्युन्मज्य व्यचष्टसः तत्रापि च यथा पूर्वमासीनौ पुनरेव सः न्यमज्जद्दर्शनम् यन्मे नृषा किम् सलिले तयोः भूयस्तत्रापि सोद्राक्षीत् स्तूयमानमहीश्वरम् सिद्धचारणगन्धर्वैरसुरैर्नतकन्धरैः सहस्रशिरसम् देवम् सहस्रफणमौलिनम् नीलाम्बरम् विसश्वेतम् शृङ्गैः श्वेतमिव स्थितम् तस्योत्सङ्गे घनश्यामम् पीतकौशेयवाससम् पुरुषम् चतुर्भुजम् शान्तम् पद्मपत्रारुणेक्षणम् चारुप्रसन्नवदनम् चारुहासनिरीक्षणम् सुभ्रोन्नसम् चारुकर्णम् सुकपोलारुणाधरम् प्रलम्बपीवरभुजम् तुङ्गासोरस्थलश्रियम् कम्बुकण्ठम् निम्ननाभिम् वलिमत्पल्लवोदरम् बृहत्कटितटश्रोणीकरभोरुद्वयान्वितम् चारुजानुयुगम् चारुजङ्घायुगलसंयुतम् तुङ्गगुल्फारुणनखव्रातदीधितिभिर्वृतम् नवाङ्गुल्यङ्गुष्ठदलैर्विलसत्पादपङ्कजम् सुमहार्हमणिव्रातकिरीटकटकाङ्गदैः कटिसूत्रब्रह्मसूत्रहारणूपुरकुण्डलैः भ्राजमानम् पद्मकरम् शङ्खचक्रगदाधरम् श्रीवत्सवक्षसम् भ्राजत् कौस्तुभम् वनमालिनम् सुनन्दनन्दप्रमुखैः पार्षदैः सनकादिभिः सुरेशैर्ब्रह्मरुद्राद्यैर्नवभिश्च द्विजोत्तमैः प्रह्रादनारदवसुप्रमुखैर्भागवतोत्तमैः स्तूयमानम् पृथग्भावैर्वचोभिरमलात्मभिः श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्ये लयोर्जया विद्यया विद्यया शक्त्या मायया च निषेवितम् विलोक्य सुभृशम् प्रीतो भक्त्या परमयायुतः हृष्यत्तनूरुहो भाव परिक्लिन्नात्मलोचनः गिरा गद्गदयास्तौषीत् सत्त्वमालम्ब्य सात्वतः प्रणम्य मूर्ध्ना वहितः कृताञ्जलिपुटः शनैः ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे क्रूरप्रतियाने एकोनचत्वारिंशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् యథా త్వచ్చరణాం భోజే రతిః స్యాదనపాయినీ.